कुचेलना वा भवतः सतीत्यथ गतः स सादीपनि मन्दिरे द्विजः त्वदेकरागेण दनादि निःस्पृहो दिनानि निन्य प्रशमी गृहश्रमी समानशीलापि तदीयवल्लभा तथैव नो चित्तजयम् समेयुषि कदाचिदूचे बत वृत्ति लब्धये रमापते किम् न सख निषेव्यते इति रितोऽयम् प्रियया सुधातया जुगुप्समानोऽपि धने मदावहे तदा त्वदा लोकन कौतुकाद्ययौ वहन् पठान्ते कुतुकानुपायनम् गतोऽयमाश्चर्यमयीम् भवत्पुरीम् गृहेषु शैव्या भवनम् समेयिवान् प्रविश्य मयि कुन्तमिवाप निर्वृतिम् तवातिसंभावनया तु किम् पुनः प्रभूजितम् तम् प्रियया च भीजितम् करे गृहीत्वा कथय पुरा कृतौ यदिन्दनार्तौ गुरुदारचोदितैरपत्तुमर्षौ तदमर्षिकानने प्रपाजुषोऽस्मात् पृथुकौ बलादत प्रगृह्यमुष्टौ सकृताशिते त्वया कृतम् कृतम् नन्दियतेति सम्भ्रमात्रमाति लोकेत्यकरम् रुरोदते भक्तेषु भक्तेन समानित त्वया पुरी वसन्येक निशामहासुकम् बत परे द्युद्रविणौ विनाययौ विचित्ररूपस्तव खल्वनुग्रहः यदि ह्ययाशिष्य मदास्य दर्शुतो वदामि भार्याम् किमिति व्रजन्नसौ त्वदुक्तिलीलाश्रितमग्रवे पुनः प्रमाद पश्यन् मणिदे प्रमालयम् किम् मार्ग विभ्रंस इति भ्रमन् क्षणम् गृहम् प्रविष्ट सददर्श वल्लभ सखी परीता मणि हेमभूषिता बुबोध च त्वत्तरुणाम् महाद्भुतम् तरत्नशालासु वसन्नपि स्वयम् समुन्नमद्भक्तिभरो मृतम् ययौ त्वमेव मापूरित भक्तवाञ्चितो मरुत्पुरादीश हर स्वमे गदा